इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। आदौ मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी भारत साइप्रस देशयोः सहभागिता सह प्रजातन्त्र मूल्येषु विधि राज्ये च दृढतया निहिता वर्तते इति वर्णितवान्। प्रधानमन्त्रिणे नरेन्द्र मोदिने साइप्रस देशेन सर्वोच्च नागरिक सम्मानः ग्रैंड क्रॉस ऑफ द ऑर्डर ऑफ मकारियोस तृतीयम् इत्याख्यः सम्मानः प्रदत्तः। जनगणना अधिसूचना द्वयोः चरणयोः भविष्यति। षड्विंशत्युत्तर द्विसहस्र वर्षस्य अक्टूबर मासस्य एकदिनांकात् प्रथमः चरणः भविष्यति। केन्द्रीय स्वास्थ्य परिवार कल्याण राज्य मंत्री अनुप्रिया पटेल अवदत् यत् विश्व स्वास्थ्य संघटने सूच्यौषधानि 70% भारतात् आगच्छन्ति। ईरानस्य राष्ट्रपतिः मसूद पेजेश्कियन अवदत् यत् ईरानस्य संसदः परमाणु सन्देहे निवृत्तेः विधि निर्माणं कुर्वदस्ति। अपि च जलवायु विभागेन अद्य तटीय कर्णाटक कोंकण गोवा प्रदेशानां भिन्न भिन्न स्थानेषु अतीव तीव्र वृष्टेः अनुमानं कृतम्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी भारत साइप्रस देशयोः सहभागिता सह प्रजातन्त्र मूल्येषु विधि राज्ये च दृढतया निहिता वर्तते इति वर्णितवान्। सः अवदत् यत् द्वयोः देशयोः मैत्री परिस्थितिभिः न निर्मिता, सीमाभिः वा निरुद्धा नास्ति, मित्रता दृढतया स्थिता अस्ति। श्रीमोदिना अद्य निकोसिया नगरस्य राष्ट्रपति भवने साइप्रस देशस्य राष्ट्रपतिना निकोस क्रिस्टोडोलिडिस इत्यनेन सह प्रतिनिधिमण्डल स्तरीया वार्तायाः अनन्तरं वार्ताहरान् सम्बोधयन् एतत् उक्तम्। सः अवदत् यत् साइप्रस देशस्य 35-उत्तर-2000 वर्षस्य लक्ष्यं तथा भारतस्य 47-उत्तर-2000 वर्षस्य विकसित भारत इत्येतयोः मध्ये बहु साम्यं वर्तते। आगामिषु पञ्चवर्षेषु सहभागितायाः भविष्यस्य स्वरूपं निर्मातुं मार्गचित्रं निर्मितं भविष्यति।
अध्याय लिखने का एक स्वर्णिम अवसर है। आज राष्ट्रपति जी और मैंने द्विपक्षीय संबंधों के सभी पहलुओं पर व्यापक चर्चा की। साइप्रस के विजन 2035 और विकसित भारत 2047 के विजन के कई पहलुओं में समानता है।
प्रधानमन्त्रिणा भारतस्य अधिसीमम् आतंकवाद विरुद्धे युद्धे समर्थनार्थं साइप्रस देशाय धन्यवादः अपि प्रदत्तः। उभौ नेतारौ भारत साइप्रस देश सम्बन्धयोः समग्र विषयेषु व्यापक चर्चां कृतवन्तौ। रक्षा सुरक्षा प्रौद्योगिकी स्वास्थ्य सेवा नवीकरणीय ऊर्जा जलवायु इत्यादिषु क्षेत्रेषु सहकार्यस्य विषये चर्चां कृतवन्तौ। सद्य एव जातस्य पहलगाम आतंकवाद आक्रमणस्य विषये साइप्रस देशेन भारत सीमा पार आतंकवाद विरुद्ध युद्धे एकतायाः अटल समर्थनं च प्रकटितम्। ततः श्रीमोदी राष्ट्रपति निकोस क्रिस्टोडोलिडिस इत्यनेन सह उपवेशनं कृतवान्, यस्मिन् समये साइप्रस देशस्य राष्ट्रपतिना तस्मै ग्रैंड क्रॉस ऑफ द ऑर्डर ऑफ मकारियोस तृतीयेन साइप्रस गणराज्यस्य सर्वोच्च नागरिक सम्मानः प्रदत्तः। पुरस्कारोऽयं प्रधानमन्त्रिणं मोदिनं प्राप्तानां अन्ताराष्ट्रिय पुरस्काराणां वर्धमान सूच्यां योजयति। कृतज्ञतां प्रकटयन् श्रीमोदी अवदत् यत् एतत् भारतस्य 40-उत्तर-100-कोटि-जनानां कृते गौरवमस्ति।
अभी कुछ देर पहले मुझे साइप्रस के इतने बड़े सम्मान से अलंकृत किया गया। ये सम्मान केवल मेरा नहीं, 140 करोड़ भारतीयों का सम्मान है। यह भारत और साइप्रस की अटूट मित्रता की मोहर है।
केन्द्र प्रशासनेन जनगणना 27-उत्तर-2000 कृते अधिसूचना प्रसारिता। जनगणना द्वयोः चरणयोः भविष्यति, एतत् औपचारिक रूपेण घोषितम्। अनेन सह जनगणना प्रक्रिया अधुना आधिकारिकतया आरब्धा। जनगणना द्वयोः चरणयोः सम्पन्नं भविष्यति। भारतं वैश्विक प्रमुख सूच्यौषध रूपेण औषध निर्मातृ रूपेण च निरन्तरं वर्तते। अनुप्रिया पटेलः एतत् उक्तवती। केन्द्रीय स्वास्थ्य परिवार कल्याण राज्यमन्त्री अनुप्रिया पटेलः अद्य अवदत् यत् भारतं वैश्विकं सूच्यौषध रूपेण औषध निर्मातरि च अग्रगण्यं वर्तते। पटेलः अवदत् यत् भारतं सूच्यौषधानां प्रमुखः आपूर्तिकर्ता वर्तते। विश्व स्वास्थ्य संघटने सूच्यौषधानि 70% भारतात् एव आगच्छन्ति। सा अवदत् यत् भारतदेशः औषध निर्माणे अग्रे वर्तते। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। समम् एव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ newsonair मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। इजराइल देशेन सह संवर्धमानस्य द्वन्द्वस्य मध्ये ईरानः परमाणु अप्रसार सन्देहे निवृत्तेः योजनां कुर्वन् अस्ति। राष्ट्रपतिः मसूद पेजेश्कियनः अवदत् यत् ईरानस्य संसदः परमाणु सन्देहे निवृत्तेः विधिनिर्माणं कुर्वदस्ति। राष्ट्रपतिः तेहरानस्य वृत्तं पुनरुक्तवान् यत् तस्य परमाणुशास्त्राणां विकासस्य योजना नास्ति, तथा च ईरानस्य परमाणु क्रियाकलापाः शान्तिपूर्णतया ऊर्जायाः अनुसन्धानस्य विषये केन्द्रीकृताः एव सन्ति। ईरान इजरायलयोः मध्ये वर्धमानः संघर्षः अद्य चतुर्थे दिने अपि प्रचलति। उभय पक्षतः च अविवेकीरूपेण परस्परं क्षेपणास्त्रं प्रहार्यते। एतेषु आक्रमणेषु उभय देशेषु शतशः जनाः मृताः, बृहद् विनाशः अपि अभवत्। गतरात्रौ आक्रमणेषु शतशः इतोपि नागरिकाः मृताः। गृहमन्त्री अमितशाहः राज्यानां सहायोद्धार आयुक्तान् अवोचत् यत् प्रत्येकं मण्डलस्य कृते जनपद आपद प्रबन्धन योजनायाः निर्माणं भवेत्। अद्य नवदिल्ल्यां राज्यानां केन्द्रशासित प्रदेशानां च सहायोद्धार आयुक्तानां आपद प्रतिक्रिया बलानां च सम्मेलनं सम्बोधयन् शाह महोदयः उक्तवान् यत् आपद्भिः सह निवारणाय जनपदस्तरेण आपद प्रबन्धन योजनायाः निर्माणम् अतीव महत्वपूर्णं वर्तते।
10 साल के अंदर एनडीएमए, एनडीआरएफ और सीडीआरआई, ये तीन संस्थाओं ने भारत को आपदा प्रबंधन के क्षेत्र में ग्लोबल लीडर बनाने के करीब ले जाकर खड़ा कर दिया। ये हम सब के लिए बड़ा आनंद का विषय। एनडीएमए ने नीति विषयक संरचना करना, शोध कार्य करना, अनेक प्रकार के अभ्यास के लेखों को लोगों तक पहुंचाना, कई एप्स बनाना और ओवरऑल कोऑर्डिनेशन नीति विषयों का एनडीएमए ने बहुत अच्छा किया है।
प्रथमं वारं यूके देशस्य विदेशीय गुप्तचर समवायस्य नेतृत्वं महिला विधास्यति। यूके देशस्य विदेशीय गुप्तचर संस्थायाः MI6 इत्यस्य 16+100 वर्षीय इतिहासे प्रथमं वारं महिलायाः नेतृत्वं भविष्यति। गुजरातस्य पूर्व मुख्यमंत्री विजय रूपाणी इत्यस्य शवः DNA मेलनस्य अनन्तरं तस्य परिजनाय समर्पितः। शवं गृहीत्वा परिवारः प्रस्थितः। अन्तिमसंस्कारः अद्य सायंकाले भविष्यति। विजय रूपाणी 16+2000 1-21+2000 पर्यन्तं गुजरातस्य मुख्यमंत्री आसीत्। एतावता गुजरातस्य अहमदाबाद विमान दुर्घटनायां मृतानां 99 जनानां DNA प्रतिरूपाणां मेलनं कृतम्। एतेषु 64 शवाः परिजनाय समर्पिताः। सिविल हॉस्पिटल इत्यस्य अतिरिक्तः अधीक्षकः डॉ रजनीश पटेलः अवदत् यत् येषां DNA मेलनं कृतं तेषां शवस्य मेलनं कृत्वा तेषां परिवारेभ्यः सूचनाः प्रदत्ताः। जलवायु विभागेन अद्य तटीय कर्णाटक कोंकण गोवा प्रदेशानां भिन्न भिन्न स्थानेषु अति तीव्र वृष्टि अनुमीयते। विभागेन पश्चिम तटीय क्षेत्रेषु प्रचण्ड वृष्टि संचेतना प्रसारिता। छत्तीसगढ़ गुजरात केरल प्रदेशेन सह पूर्वोत्तर राज्याणां केषुचित् भागेषु अपि आगामिषु द्वित्र दिनेषु प्रचण्ड वृष्टि भवितुं शक्नोति। अद्य बिहार छत्तीसगढ़ केरल माहे लक्षद्वीप मध्यप्रदेश राजस्थान प्रदेशेषु 50-60 किलोमीटर पर्यन्तं वायुवेगः वज्रपातश्च भविष्यति इति विभागेन उक्तम्। पश्चिम बंगाले कोलकाता नगरस्य खिदिरपुर बाजार आपण क्षेत्रे विशाल अग्निना सहस्राधिकानि आपणानि दग्ध्वा भस्माः अभवन् इति वार्ताः।